ओम नमो भगवते वासुदेवाय। अर्जुन उवाच एवं सतत युक्ता ये भक्तास्त्वां परिवर्तते ये जाप्यक्षरम व्यक्तं तेषां के योगवित्तवान्। श्री भगवान उवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते श्रद्धया प्रयोपेतास्ते मे युक्ततमामता। ये त्वक्षरम निर्देश्यम अव्यक्तम परिवासते सर्वत्र गमचिन्त्यञ्च कूटस्थमचलं ध्रुवम् सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय ते प्राप्नुवन्ति मामेव सर्वभूतहितेरताः। क्लेशोऽधिगतरस्तेषामव्यक्ता सत्तचेतसाम् अव्यक्ता एकधिर्दुःखं देहवद्धिर्वाप्यते। ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्परा अनन्येनैव योगेन मां ध्यायन्त उपासते तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवापि न चिरात् पार्था मय्यावेशितचेतसाम् मय्येव मनादत्त्वा मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अथ ऊर्ध्वं न संशय अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छात्वं धनञ्जय। अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भा मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि। अथ इदप्यशक्तोऽसि कर्तुम् मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यदार्थवान्। श्रेयो हि ज्ञानमभ्यासात् ज्ञानाध्यानं विशिष्यते ध्यानात् कर्मफलत्यागत्यागार्थान्तरनन्तरम्। अद्वेष्टाः सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारस्रमदुःखसुखक्षमे। सन्तुष्टः सततं योगी यदात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः। यस्मान्नो द्विजते लोको लोकान्नो द्विजते जयः हर्षामृषभयोद्वेगैर्मुक्तो यः स च मे प्रियः। अनपेक्षाशुचिर्दक्ष उदासीनो गतव्यथा सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः। यो न हृष्यति न द्वेष्यति न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः। समशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः। तुल्यनिन्दास्तुतिर्मौनि सन्तुष्टो येन केनचित् अनिकेतस्थिरमतिर्भक्तिमान्मे प्रियो नरः। ये तु धर्म्यामृतमिदं यथोक्तं परिवासते श्रद्धदानामत्परमा भक्तास्तेतीव मे प्रियाः। ॐ तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियो नाम द्वादशोऽध्यायः।